गुंहवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणा ब्रह्मणस्पत आन शृण्वन्नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजिनीवती धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वरे बाहुभ्यामुदते नमः यात इषुः शिवतमा शिवम् बभूव ते धनुः शिवा शरव्या यातवतया नो रुद्रमृडया या ते रुद्र शिवा तनूरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशी यामिषुम् गिरिशन्त हस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसीः पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छावदामसि यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत् अर्धवोचदधिवक्ता प्रथमो दैव्योऽभिषक् अहीगुश्च सर्वाञ्जम्भयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रः सुमङ्गलः ये चेवागुम् रुद्रा अभितो दिक्षश्रिता सहस्रशो वैशागुम् हेडईमहे असव्यो वसर्पति नीलग्रीवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नुदहार्यः उदैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अथो ये अस्य तत्त्वानोऽहन्तेभ्यो करणमः प्रमुञ्च धन्वनस्त्वमुभयोरार्मियोर्ज्याम् याच्च ते हस्त इषवः पराता भगवो वप अवतत्यधनुस्त्वगुम् सहस्राक्षशते शुधे निषेर्य शल्याणाम् मुखा शिवो न सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येषव आभुरस्य निषङ्गतिः या ते हेतिर्मीढुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानादताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र త్రయంబకాయ త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యవాహవే సేనాన్యే దిశాం చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్య పశూనాం పతయే నమో నమః. సస్పింజరాయ త్రిషీమతే పతీనాం పతయే నమో నమో. బభ్లుషాయ విద్యాధినేన్నానాం పతయే నమో నమో. హరికేశాయోపవీతినే పుష్టానాం పతయే నమో నమో. భవస్య హేత్యై జగతాం పతయే నమో నమో. రుద్రాయ తతావినే క్షేత్రాణాం పతయే నమో నమః. సూతాయ హంత్యాయ వనానాం పతయే నమో నమో. రోహితాయ స్థపతయే వృక్షాణాం పతయే నమో నమో. మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో. భువంతయే వారివస్కృతాయౌషధీనాం పతయే నమో నమ. ఉచ్చైర్ఘోషాయ క్రందయతే పత్తీనాం పతయే నమో నమ. కృష్ణవీతాయ ధావతే సత్వనాం పతయే నమ. నమః సహమానాయ నిర్వ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమః. కకుభాయ నిషంగినే సేనానాం పతయే నమో నమో. నిషంగిణ ఇషుధిమతే తస్కరాణాం పతయే నమో నమో. వంచతే పరివంచతే స్థాయూనాం పతయే నమో నమో. నిచేరవే పరిచరాయారణ్యానాం పతయే నమో నమః. శృకావిభ్యో జిఘాగుంసద్భ్యో ముష్ణతాం పతయే నమో నమో. సిమద్భ్యో నక్తం చరద్య ప్రకృంతానాం పతయే నమో నమ. ఉష్ణీషిణే గిరిచరాయ కులుంచానాం పతయే నమో నమ. ఇషుమద్భ్యో ధన్వానిభ్యశ్చ వో నమో నమ. ఆతన్వానేభ్య ప్రతిదధానేభ్యశ్చ వో నమో నమ. ఆయచ్ఛద్భ్యో విసృజభ్యశ్చ వో నమో నమోస్యభ్యో విద్యభ్యశ్చ వో నమో నమ. ఆసీనేభ్యశ్చయానేభ్యశ్చ వో నమో నమ. స్వపద్భ్యో జాగ్రభ్యశ్చ వో నమో నమస్తిష్టభ్యో ధావభ్యశ్చ వో నమో నమః. సభాపతిభ్యశ్చ వో నమో నమో. అశ్వేభ్యో అశ్వపతిభ్యశ్చ వో నమః. నమ ఆవ్యాధినీభ్యో వివిధ్యంతేభ్యశ్చ వో నమో నమ. ఉగణాభ్యస్తృగుం హతేభ్యశ్చ వో నమో నమో. గృత్సేభ్యో గృత్సపతిభ్యశ్చ వో నమో నమో. వ్రాతేభ్యో వ్రాతపతిభ్యశ్చ వో నమో నమో. గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో. విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో. మహద్భ్యః క్షుల్లకేభ్యశ్చ వో నమో నమో. రతిభ్యో రతేభ్యశ్చ వో నమో నమో. రథేభ్యో రథపతిభ్యశ్చ వో నమో నమ. సేనానిభ్యశ్చ వో నమో నమః. శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమస్తక్షద్భ్యో రథకారేభ్యశ్చ వో నమో నమ. కులాలేభ్యః కర్మారేభ్యశ్చ వో నమో నమ. పుంజిష్టేభ్యో ఋషిభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయోభ్యశ్వనేభ్యశ్చ వో నమో నమః స్వభ్యశ్వపతిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కపర్దినే చ యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిపిభిష్టాయ చ నమో మీఢుష్టమాయ చేషుమతే చ నమో హ్రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షీయతే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమః ఆశవే చాజిరాయ చ నమః శీఘ్రియాయ చ శీభ్యాయ చ నమః ఊర్మ్యాయ చావత్స్వన్యాయ చ నమః శ్రోతస్యాయ చ ద్వేభ్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చాపరజాయ చ నమో మధ్యమాయ చాపగల్భాయ చ నమో జఘన్యాయ చ బుధ్నియాయ చ నమః సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ కల్యాయ చ నమః శ్లోక్యాయ చావసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేణాయ చాశురథాయ చ నమః శూరాయ చావభిందతే చ నమో వర్మిణే చ వరూతినే చ నమో విల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చాహనన్యాయ చ నమో ధృష్ణవే చ ప్రవృషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగినే చేషుధిమతే చ నమస్తీక్ష్ణేశవే చాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పథ్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః శూద్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైషంతాయ చ నమః కోప్యాయ చ వట్యాయ చ నమో వర్ష్యాయ చ వర్ష్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమః ఈద్రియాయ చాతప్యాయ చ నమో వాత్యాయ చ రేష్మియాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమస్తామ్రాయ చారుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమస్తీర్థ్యాయ చ కూల్యాయ చ నమః పార్యాయ చ వార్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆతార్యాయ చాలాద్యాయ చ నమః శష్ప్యాయ చ ఫేన్యాయ చ నమః శికత్యాయ చ ప్రవాక్యాయ చ నమ ఇరిణ్యాయ చ ప్రపత్యాయ చ నమః కిగుంశిలాయ చ క్షయణాయ చ నమః కపద్దినే చ పులస్తయే చ నమో గోష్ఠ్యాయ చ గృహ్యాయ చ నమస్తల్ప్యాయ చ గేహ్యాయ చ నమః काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमोपगुरमाणाय चाभिघ्नते च नमः आखिदते च प्रखिदते च नमो वक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मा रोमो येषाम् किञ्च नाममत् या ते रुद्रशिवा तनुर्शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृणजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् यथा नश्यमसद्विपदे च दुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्छम् च योऽस्य मनुरायजे पिता ददस्यामदव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो मधीः पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान् मानो रुद्रभामितो वनेर्हविष्मन्तो नमसा विधेमते आरात्रे गोग्र उत पूरुषग्ने क्षयद्वीराय सुम् नमस्मेते अस्तु रक्षा च नो अधि च देव ब्रूह्यता जनः शर्म यच्च विवर्हा सुभिश्रुतम् गत्त सदयुवानम् बृहन्न भीममुपहत्मुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवपन्तु सेना परिणो रुद्रस्य हेतिर्मृडक्तु परित्वेषस्य दुर्मतिरघायो अवस्थिरा मगवद्भ्यस्तनुष्वमीढस्तोकायतनयाय मृडया मीडुष्टमशिवदमशिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्तिम् वचा न आचर पिनाकम् बिभ्रदा गहि विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोऽन्यमस्मन्निवपन्तु ताः सहस्राणि सहस्रधा बाहुवोत्सव हेतयः तासामीशानो भगवः पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्रा अधिभूम्याम् तेषागुम् सहस्रयोजने वधन्वानि दन्मसे अस्मिन्महत्यर्णवेऽन्तरिक्षे भव अधि नीलग्रीवाश्रीकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखासः कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पदाम्बधिरक्षय ऐलभृदायव्युधः ये तीर्थानि प्रचरन्ति शृकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्राविटस्थिरे तेषागुं सहस्रयो जने वधन्वानि दन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येन्तरिक्षे ये दिवि ये शामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतिचीर्दशोदिचीर्दशोद्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् विश्वो यश्च नो द्वेष्टितम् भोजम् भेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्व भुवनाभिवेश तस्मै रुद्राय नमो अस्तु येते सहस्रमयुतम् पाशा मृत्योमर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः एनान्नेनाप्यायस्व नमो रुद्राय विश्वमे मृत्युर्मे पाहि तमुष्टु हि यस्विषुस्तु धन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसीमा वर्धन्तु वाङ्गिरः युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रथितिश्च मे भीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे बाणश्च मे व्यानश्च मे शुश्च मे चित्तम् च म आधीतम् च मे वाच्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगंषि च मे शरीराणि च मे ज्येष्ठ्यम् च म आधिपत्यम् च मे मञ्जश्च मे भामश्च मेमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वश्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे द्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे क्लुप्तम् च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे शम् च मे मयश्च मे प्रियम् च मेनु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे వస్యశ్చ మే యశశ్చ మే భగశ్చ మే ద్రవిణం చ మే యంతా చ మే ధర్తా చ మే క్షేమశ్చ మే ధృతిశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిచ్చ మే జ్ఞాత్రం చ మే సోశ్చ మే ప్రసోశ్చ మే శీరం చ మే లయశ్చ మరుతం చ మే మృతం చ మే యక్ష్మం చ మే నామయచ్చ మే జీవాతుశ్చ మే దీర్ఘాయుత్వం చ మే అమిత్రం చ మే భయం చ మే సుఖం చ మే శయనం చ మే సోషా చ మే సుదినం చ మే ఊర్చ మే సోనృతా చ మే పయశ్చ మే రసశ్చ మే ఘృతం చ మే మధు చ మే సద్ధిశ్చ మే సపీతిశ్చ మే కృషిశ్చ మే వృష్టిశ్చ మే చైత్రం చ మౌద్భిద్యం చ మే రయశ్చ మే రాజశ్చ మే పుష్టం చ మే పుష్టిశ్చ మే విభుచ మే ప్రభుచ మే బహుచ మే భూయశ్చ మే పూర్ణం చ మే పూర్ణతరం చ మే క్షితిశ్చ మే కూయవాశ్చ మే నం చ మే శుచ్చ మే బ్రీహయశ్చ మే యవాశ్చ మే మాషాశ్చ మే తిలాశ్చ మే ముద్గాశ్చ మే ఖల్వాశ్చ మే గోధూమాశ్చ మే మసురాశ్చ మే ప్రియంగవశ్చ మేణవశ్చ మే శ్యామాకాశ్చ మే నివారాశ్చ మే అశ్మా చ మే మృత్తికా చ మే గిరయశ్చ మే పర్వతాశ్చ మే శిఖరాశ్చ మే వనస్పతయశ్చ మే హిరణ్యం చ మే యశ్చ మే శేషం చ మే త్రపుశ్చ మే శ్యామం చ మే లోహం చ మే అగ్నిశ్చ మాపశ్చ మే పీరుధశ్చ మోషధయశ్చ మే కృష్ణపచ్యం చ మే కృష్ణపచ్యం చ మే గ్రామ్యాశ్చ మే పశవ ఆరణ్యాశ్చ యజ్ఞేన కల్పంతాం విత్తం చ మే విత్తిశ్చ మే భూతం చ మే భూతిశ్చ మే వసు చ మే వసతిశ్చ మే కర్మ చ మే శక్తిశ్చ మే అర్థశ్చ మ ఏమశ్చ మ ఇతిశ్చ మే గతిశ్చ మే అగ్నిశ్చ మ ఇంద్రశ్చ మే సోమశ్చ మ ఇంద్రశ్చ మే సవితా చ మ ఇంద్రశ్చ మే సరస్వతీ చ మ ఇంద్రశ్చ మే పూషా చ మ ఇంద్రశ్చ మే బృహస్పతిశ్చ మ ఇంద్రశ్చ మే మిత్రశ్చ మ ఇంద్రశ్చ మే వరుణశ్చ మ ఇంద్రశ్చ మే త్వష్టా చ మ ఇంద్రశ్చ మే ధాతా చ మ ఇంద్రశ్చ మే విష్ణుశ్చ మ ఇంద్రశ్చ మే శ్వినో చ మ ఇంద్రశ్చ మే మరుతశ్చ మ ఇంద్రశ్చ మే విశ్వే చ మే దేవాగింద్రశ్చ మే పృథివీ చ మ ఇంద్రశ్చ మేంతరిక్షం చ మ ఇంద్రశ్చ మే ద్యౌశ్చ మ ఇంద్రశ్చ మే దిశశ్చ మ ఇంద్రశ్చ మే మూర్ధా చ మ ఇంద్రశ్చ మే ప్రజాపతిశ్చ మ ఇంద్ర మే అగుంశ్చ మే రశ్మిశ్చ మేదాభ్యశ్చ మేధిపతిశ్చ మ ఉపాగుంశ్చ మే అంతర్యామశ్చ మ ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మ ఆశ్వినశ్చ మే ప్రతి ప్రస్థానశ్చ మే శుక్రశ్చ మే మంథే చ మ ఆగ్రయణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుతుగ్రహాశ్చ మేతి గ్రాహ్యాశ్చ మ ఐంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే మరుత్వతీయా ಶ್ಚ ಮೇ ಮಹೇಂದ್ರಶ್ಚ ಮ ಆದಿತ್ಯಶ್ಚ ಮೇ ಸಾವಿತ್ರಶ್ಚ ಮೇ ಸಾರಸ್ವತಶ್ಚ ಮೇ ಪೌಷ್ಣಶ್ಚ ಮೇ ಪಾತ್ನೀವತಶ್ಚ ಮೇ ಹಾರ್ಯೋಜನಶ್ಚ ಮೇ ಇದ್ಮಶ್ಚ ಮೇ ಬರ್ಹಿಶ್ಚ ಮೇ ವೇದಿಶ್ಚ ಮೇ ಧಿಷ್ಣಿಯಾಶ್ಚ ಮೇ ಶ್ರುಚಶ್ಚ ಮೇ ಚಮಸಾಶ್ಚ ಮೇ ಗ್ರಾವಾನಶ್ಚ ಮೇ ಸ್ವರವಶ್ಚ ಮ ಉಪರವಾಶ್ಚ ಮೇ ಧಿಷವಣೇ ಚ ಮೇ ದ್ರೋಣಕಲಶಶ್ಚ ಮೇ ವಾಯವ್ಯಾರಿ ಚ ಮೇ ಪೂತಭೃಚ್ಚ ಮ ಆಧವಣೀಯಶ್ಚ ಮ ಆಗ್ನೇದ್ರಂ ಚ ಮೇ ಹವಿರ್ಧಾನಂ ಚ ಮೇ ಗೃಹಾಶ್ಚ ಮೇ ಸದಶ್ಚ ಮೇ ಪುರೋಡಾಶಾಶ್ಚ ಮೇ ಪಚತಾಶ್ಚ ಮೇ ವಭೃತಶ್ಚ ಮೇ ಸ್ವಗಾಕಾರಶ್ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮೇ ಘರ್ಮಶ್ಚ ಮೇರ್ಕಶ್ಚ ಮೇ ಸೂರ್ಯಶ್ಚ ಮೇ ಪ್ರಾಣಶ್ಚ ಮೇ ಶ್ವಮೇಧಶ್ಚ ಮೇ ಪೃಥಿವೀ ಚ ಮೇ ದಿತಿಶ್ಚ ಮೇ ದಿತಿಶ್ಚ ಮೇ ದ್ಯೌಶ್ಚ ಮೇ ಶಕ್ವರೀರಂಗುಲಯೋದಿಶಶ್ಚ ಮೇ ಯಜ್ಞೇನ ಕಲ್ಪಂತಾಮೃಕ್ಷ ಮೇ ಸಾಮ ಚ ಮೇ ಸೋಮಶ್ಚ ಮೇ ಯಜುಶ್ಚ ಮೇ ದೀಕ್ಷಾ ಚ ಮೇ ತಪಶ್ಚ ಮರುತುಶ್ಚ ಮೇ ವ್ರತಂಚ ಮೇ ಹೋರಾತ್ರಯೋರ್ಪೃಷ್ಟ್ಯಾ ಬೃಹದ್ರತಂತರೇ ಚ ಮೇ ಯಜ್ಞೇನ ಕಲ್ಪೇತಾ ಗರ್ಭಾಶ್ಚ ಮೇ ವತ್ಸಾಶ್ಚ ಮೇ ತ್ರಯವಿಶ್ಚ ಮೇ ತ್ರಯವೇ ಚ ಮೇ ದಿತ್ಯವಾಚ್ಚ ಮೇ ದಿತ್ಯೋಹೇ ಚ ಮೇ ಪಂಚಾವಿಶ್ಚ ಮೇ ಪಂಚಾವೇ ಚ ಮೇ ತ್ರಿವತ್ಸಶ್ಚ ಮೇ ತ್ರಿವತ್ಸಾ ಚ ಮೇ ತುರ್ಯವಾಚ್ಚ ಮೇ ತುರ್ಯೋಹೇ ಚ ಮೇ ಪಷ್ಟವಾಚ್ಚ ಮೇ ಪಷ್ಟೌಹೇ ಚ ಮ ಉಕ್ಷಾ ಚ ಮೇ ವಶಾ ಚ ಮ ಋಷಭಶ್ಚ ಮೇ ವೇಹಶ್ಚ ಮೇ ನಡ್ವಾಂಚ ಮೇ ಧೇನುಶ್ಚ ಮ ಆಯುರ್ಯಜ್ಞೇನ ಕಲ್ಪತಾ ಪ್ರಾಣೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಮಪಾನೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾ ವ್ಯಾನೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಚಕ್ಷುರ್ಯಜ್ಞೇನ ಕಲ್ಪತಾ ಗುಶ್ರೋತ್ರೈ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಮನೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ವಾಗ್ಯಜ್ಞೇನ ಕಲ್ಪತಾ ಮಾತ್ಮ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಯಜ್ಞೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾ ಏಕಾ ಚ ಮೇ ತಿಸ್ರಶ್ಚ ಮೇ ಪಂಚ ಚ ಮೇ ಸಪ್ತ ಚ ಮೇ ನವ ಚ ಮಗೇಕಾದಶ ಚ ಮೇ ತ್ರಯೋದಶ ಚ ಮೇ ಪಂಚದಶ ಚ ಮೇ ಸಪ್ತದಶ ಚ ಮೇ ನವದಶ ಚ ಮಗೇಕ ವಿಗುಂಶತಿಶ್ಚ ಮೇ ತ್ರಯೋ ವಿಗುಂಶತಿಶ್ಚ ಮೇ ಪಂಚ ವಿಗುಂಶತಿಶ್ಚ ಮೇ ಸಪ್ತ ವಿಗುಂಶತಿಶ್ಚ ಮೇ ನವ ವಿಗುಂಶತಿಶ್ಚ ಮಗೇಕ ತ್ರಿಗುಂಶಚ್ಚ ಮೇ ತ್ರಯಸ್ತ್ರಿಗುಂಶಚ್ಚ ಮೇ ಚತಸ್ರಶ್ಚ ಮೇ ಷ್ಟೌ ಚ ಮೇ ದ್ವಾದಶ ಚ ಮೇ ಷೋಡಶ ಚ ಮೇ ವಿಗುಂಶತಿಶ್ಚ ಮೇ ಚತುರ್ವಿಗುಂಶತಿಶ್ಚ ಮೇ ಷಾವಿಗುಂಶತಿಶ್ಚ ಮೇ ದ್ವಾತ್ರಿಗುಂಶಚ್ಚ ಮೇ ಷಟ್ರಿಗುಂಶಚ್ಚ ಮೇ ಚತ್ವಾರಿಗುಂಶಚ್ಚ ಮೇ ಚತುಶ್ಚತ್ವಾರಿಗುಂಶಚ್ಚ ಮೇ ಷಾಚತ್ವಾರಿಗುಂಶಚ್ಚ ಮೇ ವಾಚಶ್ಚ ಪ್ರಸವಶ್ಚ ಬೀಜಶ್ಚ ಕ್ರತುಶ್ಚ ಶುಭಶ್ಚ ಮೂರ್ಧಾ ಚ ವ್ಯಶ್ನೇಯಶ್ಚಾಂದ್ಯಾಯನಶ್ಚಾಂದ್ಯಶ್ಚ ಭುವನಶ್ಚ ಭುವನಶ್ಚಾಧಿಪತಿಶ್ಚ ಇಡಾದೇ ಬಹುರ್ಮನುರ್ಯಜ್ಞನೇ ಬೃಹಸ್ಪತಿ ರುಕ್ಥಾ ಮದಾನಿಷಗುಂ ಶಿಷದ್ವಿಶ್ವೇ ದೇವಾ ಸೂಕ್ತವಾಚ ಪೃಥಿವಿ ಮಾತರ್ಮಾ ಮಾಹಿಗುಂಸೀರ್ ಮಧುಮನಿಷ್ಯೆ ಮಧುಜನಿಷ್ಯೆ ಮಧುವಕ್ಷ್ಯಾಮಿ ಮಧುವದಿಷ್ಯಾಮಿ ಮಧುಮತೀ ದೇವೇಭ್ಯೋ ವಾಚ ಮುದ್ಯಾಸಗುಂ ಶುಶ್ರೂಷೇಣ್ಯಾ ಮನುಷ್ಯೇಭ್ಯಸ್ತಂಬಾ ದೇವಾ ಅವಂತು ಶೋಭಾಯ ಪಿತರೋ ನು ಮದಂತು ಓ Shanti, Shanti, Shanti. Om. Tatachayora Vrinimahe Gatai Yajnaya Gatai Yajnapataye Daive Swastirastunaha स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजं शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति 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 सहस्रशीरुषा पुरुषः सहस्राक्षः सहस्रपात् स्वभूमिं विश्वतो वृत्त्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुं सर्वम् यद्भूतं यच्च भव्यम् उदामृतत्वस्येषानः यदन्नेनातिरोहति एतावानस्य महिमा अतो ज्यायागश्च पुरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वं व्यक्रामत् साशनानशने अभि तस्माद् विराड जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वदन्तो अस्यासीराज्यम् ग्रीष्म इद्म शरद्धविः सप्तास्यासन् परिदयः त्रिसप्त समिदः कृताः देवायज्ञज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तञ्यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्ता साध्या ऋषयश्च ये तस्मात्यज्ञात् सर्वभूतः संवृतम् पृषदाज्यम् पशोगुस्तागुश्चक्रे वायव्यान आरण्या ग्राम्याश्च ये तस्मात्यज्ञात् सर्वभूतः ऋचः सामानि जज्ञे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एकेचो भयादतः गावोह जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यददुः कदिदा व्यकल्पयन् मुखम् किमस्य कौ बाहो काभूरोपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यकृतः ऊरो तदस्य यद्वैष्यः पद्भ्रागुम् श्रोत्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेष्णोद्यौ समवर्तता पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा विवरण्यदासे धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् गणेशश्च तस्रः तमेवं विद्वान् अमृत इह भवति नान्यः पन्थ अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सजन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्भ्यः सम्भूतः पृथिव्यैरता च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यणाय प्रजापतिस्तरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् परमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा अशण्वशे ह्रीश्च ते लक्ष्मीश्च पत्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यातम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्योरावृणीमहे गातुञ्यज्ञाय गातुञ्यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वा कृमेहनि कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीनागुम् राजा अप्येषागस्थपतिर्हतः अथो माताथो पिता अथो स्थूला अथो क्षुद्रा अथो कृष्णा अथो श्वेता अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयो आदधामि तथा हि तत् खण्वन्मति ॐ शान्ति शान्ति शान्तिः ॐ अग्निमीरे पुरोहितं यज्ञस्य देवमृत्विजम् होतारम् रत्नधातमम् ऋत्वेदात्मने सूर्यनारायणस्वामिने नमः इषे त्वोजेत्वा वायवस्थो वायवस्थ देवोपसविता प्रार्थयतु श्रेष्ठतमाय कर्मणे यजुर्वेदात्मने सूर्यनारायणस्वामिने नमः अग्न आयाहि वीतये गृणानो हव्यदातये निहोता सत्सि बर्हिषि सामवेदात्मने सूर्यनारायणस्वामिने नमः शन्नो देवीरभिष्टय आपो भवन्तु पीतये शय्योरभिश्रवन्तु नः अथर्ववेदात्मने सूर्यनारायणस्वामिने नमः गृहः सूर्य आदित्यो न प्रभावात्यक्षरम् मधुक्षरन्ति तद्रसम् सत्यम् वै तत्र समापो ज्योतिरसोऽमृतम् ब्रह्मभोर्भुवत्सुवरो छायासुवच्चलाम्बासमेत श्रीसूर्यनारायणस्वामिने नमः तरनिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्या विश्वमाभाति लोचनम् उपयाम गृहीतोऽसि सूर्याय त्वा भ्राजस्वत एष ते योनि सूर्याय त्वा भ्राजस्वते छायासुवर्चलाम्ब समेत श्रीसूर्यनारायणस्वामिने नमः ॐ ह्राम् उद्यन्नद्यमित्रमहः मित्राय नमः ॐ ह्रीम् आरोहन्नुत्तराम् दिवम् रवये नमः ॐ ह्रूम् रुद्रोऽयं मम सूर्या सूर्याय नमः ॐ ह्रैं हरिमानं च नाशया भारवे नमः ॐ ह्रौं शुकेषु मे हरिमानम् खगाय नमः ॐ ह्रः रोपणाकासु दध्मसे पोष्णे नमः ॐ ह्राम् अथो हारिद्रवेषु मे हिरण्यगर्भाय नमः ॐ ह्रीं हरिमानन्निदध्मसे मरीचये नमः ॐ ह्रूं उदरकादयमादित्यः आदित्याय नमः ॐ ह्रैं विश्वेन सहसा सह सवित्रे नमः ॐ ह्रौं विशन्तं मम रन्धयन्न अर्काय नमः ॐ ह्रः मो अहं दिशतो रथं भास्कराय नमः ॐ ह्रां ह्रीं उद्यन्नद्यमित्रमहः आरोहन्नुत्तराम् दिवम् मित्ररविभ्याम् नमः ॐ ह्रूं ह्रैं रुद्रोऽयं मम सूर्या हरिमानं च नाशया सूर्यभानुभ्याम् नमः ॐ ह्रौं ह्रः शुकेषु मे हरिमाणम् रोपणाकासु दध्मसे खगपूषभ्याम् नमः ॐ ह्रां ह्रीं अथो हारिद्रवेषु मे हरिमानन्निदध्मसे हिरण्यगर्भमरीचिभ्याम् नमः ॐ ह्रूं ह्रैं विषगादयमादित्यः विश्वेन सहसा सह आदित्यसवितृभ्याम् नमः ॐ ह्रौं ह्रः दिशन्तम् मम रन्धयन्न मो अहम् दिशतो रथम् अर्कभास्कराभ्याम् नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं उद्यन्नद्यमित्रमहः आरोहन्नुत्तराम् दिवम् रुद्रोगम् मम सूर्या हरिमानम् च नाशया मित्ररविसूर्यभानुभ्यो नमः ॐ ह्रौं ह्रः ह्रां ह्रीं शुकेषु मे हरिमाणम् रोपणाकासु दध्मसि अथो हारिद्रवेषु मे हरिमाणम् निदध्मसि खगपोषहिरण्यगर्भमरीषिभ्यो नमः ॐ ह्रां ह्रैं ह्रौं ह्रः उदगादयमादित्यः विश्वेन सहसा सह द्विषन्तम् मम रन्धयन् मो अहम् द्विषतोरथम् आदित्यसवित्रर्कभास्करेभ्यो नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः उद्यन्नद्यमित्रमः आरोहन्नुत्तराम् दिवम् रुद्रोगम् मम सूर्या हरिमाणम् च नाशया शुकेषु मे हरिमाणम् रोपणाकासु दध्मसि मित्ररविसूर्यभानुभगपूषभ्यो नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः अथो हारिद्रवेषु मे हरिमानम् निदध्मसि उदगादयमादित्यः विश्वेन सहसा सह विषन्तम् मम रन्धयन् मो अहम् विषतोरथम् हिरण्यगर्भमरीचिरादित्यसमित्रर्कभास्करेभ्यो नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः उद्यन्नद्यमित्रमः आरोहन्नुत्तराम् दिवम् रुद्रोगम् मम सूर्या हरिमाणम् च नाशया शुकेषु मे हरिमाणम् रोपणाकासु दध्मसि अथो हारिद्रवेषु मे हरिमाणम् निदध्मसि उदगादयमादित्यः विश्वेन सहसा सह विषन्तम् मम रन्धयन् मो अहम् विषतोरथम् मित्ररविसूर्यभानुखगपूषहिरण्यगर्भमरीच्यादित्यसवित्रर्कभास्करेभ्यो नमः आदित्यो वा एष एतन्मण्डलम् तपति तत्र चारु चत्तदृशा मण्डलगुम् सदृशाम् लोकोथय एष एतस्मिन्मण्डले चिषीप्यतेतानि सामानि ससाम्नाम् लोकोथय एष एतस्मिन्मण्डले चिषिपुरुषस्तानि यजोगुम् शिषयजुषा मण्डलगुम् स यजुषाम् लोकस्य ैषात्रय्येव विद्या तपति य एषोऽन्तरादित्यैः रण्मयः पुरुषः छायासुवच्चलाम्बासमेत श्रीसूर्यनारायणस्वामिने नमः आदित्यो वैते जोजो बलम् यशश्चक्षु श्रोत्रमात्मा मनो मन्युर्मनु मृत्युः सत्यो मित्रो वायुराकाश प्राणो लोकपाल कर्किम् कम् तत्सत्यमन्नमृतो जीवो विश्व कथमः स्वयम्भु ब्रह्मैतदमृत एष पुरुष एष भूतानामधिपतिर्ब्रह्मणस्यायुज्यगुम् स लोकतामाप्नोत्येतासामेव देवतानागुम् सायुज्यगुम् चाष्टितागुम् समानलोकतामाप्नोति य एवम् वेदेत्युपनिषत् छायासुवच्चलाम्बासमेत श्रीसूर्यनारायणस्वामिने नमः ॐ शान् शांति 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 ओम सहनावतो सहनौ भुनक्तो सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः अथ पुरुषो ह वै नारायणो कामयत प्रजा सृजेयेति नारायणात् प्राणो जायते मनः सर्वेन्द्रियाणि च खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी नारायणात् ब्रह्मा जायते नारायणात् रुद्रो जायते नारायणादिन्द्रो जायते नारायणात् प्रजापतय प्रजायन्ते नारायणात् द्वादशादित्या रुद्रा वसव सर्वाणि च छन्दागुंसि नारायणादेव समुत्पद्यन्ते नारायणे प्रवर्तन्ते नारायणे प्रलीयन्ते ॐ अथ नित्यो नारायणः ब्रह्मा नारायणः शिवश्च नारायणः शक्रश्च नारायणः जावा पृथिव्यौ च नारायणः कालश्च नारायणः दिशश्च नारायणः ऊर्ध्वश्च नारायणः अधश्च नारायणः अन्तर्बहिश्च नारायणः नारायण एवेदगुं सर्वम् यद्भूतं यच्च भव्यम् निष्कलो निरञ्जनो निर्विकल्पो निराख्यात शुद्धो देव एको नारायणः न द्वितीयोऽस्ति कश्चित् य एवं वेद स विष्णुरेव भवति स विष्णुरेव भवति ओमित्यग्रे व्याहरेत् नम इति पश्चात् नारायणायेत्युपरिष्टात् ओमित्ये अक्षरम् नम इति द्वे अक्षरे नारायणायेति पञ्चाक्षराणि एतद्वै नारायणस्याष्टाक्षरम् पदम् यो ह वै नारायणस्याष्टाक्षरम् पदमध्येति अनपब्रुवत् सर्वमायुरेति विन्दते प्राजापत्यगुम् रायस्पौषम् गौपत्यम् ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति य एवम् वेद प्रत्यगानन्दम् ब्रह्म पुरुषम् प्रणवस्वरूपम् अकार उकारमकार इति तानेकधा समभरत्तदेतदोमिति यमुक्त्वा मुच्यते योगी जन्म संसारबन्धनात् ॐ नमो नारायणायेति मन्त्रोपासकः वैकुण्ठभुवनलोकम् गमिष्यति तदिदम् परम् पुण्डरीकम् विज्ञानघनम् तस्मादैरावन्मात्रम् ब्रह्मण्यो देवकी पुत्रो ब्रह्मण्यो मधुसूदनो सर्वभूतस्तमेकम् नारायणम् कारणरूपमकारपरब्रह्म एतदधर्वशिरो यो धीते प्रातरधीयानो रात्रिकृतम् पापम् नाशयति सायमधीयानो दिवसकृतम् पापम् नाशयति माध्यम् दिनमादित्याभिमुखो धीयान पञ्चपातकोपपातका प्रमुच्यते सर्ववेदपारायण पुण्यम् लभते నారాయణ సాయుజ్యమవాప్నోతి నారాయణ సాయుజ్యమవాప్నోతి ఏవం వేద ఇత్యుపనిషత్ సహనావవతు సహనౌ భునక్తు సహ వీర్యం కరవావహై తేజస్వినావధీతమస్తు మా విద్విషావహై ఓం శాంతి శాంతి శాంతిః స్వస్తి ప్రజాభ్యః పరిపాలయంతాం న్యాయేన మార్గేణ మహిం మహిషాః గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు ఓం శాంతి శాంతి శాంతిః